अनाश्रितः कर्मफलम् कार्यं कर्म करोति यः स सन्न्यासी च योगी च न निरग्निः न चाक्रियः यं सन्न्यासमिति प्राहु योगं तं विद्धि पाण्डव न यः सन्न्यस्तसङ्कल्पो योगी भवति कश्चन उद्धरेदात्मनात्मानम् नात्मानम् अवसादये उद्धरेदात्मनात्मानम् नात्मानम् अवसादये आत्मैव यात्मनो
सदात्मानं योगी विगतकल्मषः सुखेन ब्रह्म संस्पर्शम् अत्यन्तं सुखमश्नुते सर्वभूतस्थमात्मानम् सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः सर्वथा वर्तमानोऽपि स योगी मयि वर्तते आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन सुखं वा यदि वा दुःखम् स योगी परमो मतः
अर्जुन उवाच
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिरा चञ्चलं हि मनः कृष्णाप्रमाथि बलवद्दृढम् तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्
श्री भगवान् उवाच
असंशयं महाबाहो मनो दुर्निग्रहं चलम् अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते असंयतात्मना योगो दुष्प्राप इति मे मतिः वश्यात्मना तु यतता शक्यो वाप्तुमुपायतः वश्यात्मना तु यतता शक्यो वाप्तुमुपायतः अक्षरं ब्रह्म परमम्
अक्षरं ब्रह्म परमम्
स्वभावोऽध्यात्ममुच्यते
स्वभावोऽध्यात्ममुच्यते
भूतभावोद्भवकरो
Oh!
याति नास्त्यत्र संशयः
याति नास्त्यत्र संशयः
यं यं वापि स्मरन् भावम्
यं यं वापि स्मरन् भावम्
त्यजत्यन्ते
द्वेष्योऽस्ति न प्रियः
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् साधुरेव समन्तव्यः सम्यक् व्यवसितो हि सः साधुरेव समन्तव्यः सम्यक् व्यवसितो हि सः क्षिप्रम् भवति धर्मात्मा शश्वत्शान्तिम् निगच्छति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति न मे भक्तः प्रणश्यति
मे पार्थ रूपाणि शतशोऽथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च पश्चादित्यान् वसून् रुद्रान् अश्विनौ मरुतस्तथा बहून्यदृष्टपूर्वाणि पश्य आश्चर्या कथं जगत्कृत्नम् पश्चाद्य सचराच चरम मम देहे गुडाकेश यच्चान्यत्रष्टुमिच्छसि न तु मां शक्यते द्रष्टुम् अनेनैव स्वचक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्
सञ्जय उवाच
एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः दर्शयामास पार्थाय परमं रूपम् ऐश्वरम् दर्शयामास पार्थाय परमं रूपम् ऐश्वरम् अनेकवक्त्र नयनम् अनेक अद्भुत दर्शनम् अनेकवक्त्र नयनम् अनेक अद्भुत दर्शनम् अनेक दिव्याभरणम् दिव्यानेकोद्यतायुधम् अनेक दिव्याभरणम् दिव्यानेकोद्यतायुधम् दिव्यमाल अम्बरधरम् दिव्यगन्धानुलेपनम् दिव्यमाल अम्बरधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयम् देवम् अनन्तम् विश्वतोमुखम् सर्वाश्चर्यमयम् देवम् अनन्तम् विश्वतोमुखम् सूर्यसहस्रस्य भवेद्युगपद उत्थिता दिवि सूर्यसहस्रस्य भवेद्युगपद उत्थिता यदि भासदृशी स्थास्यात् भासस्तस्य महात्मनः यदि भासदृशी स्थास्यात् भासस्तस्य महात्मनः एकस्थं जगत् कृष्णं प्रविभक्तम् अनेकधा तत्रैकस्थं जगत् कृष्णं प्रविभक्तम् अनेकधा अपश्यद्देव देवस्य शरीरे पाण्डवस्तदा अपश्यद्देव देवस्य शरीरे पाण्डवस्तदा
पश्यामि देवांस्तव देवदेहे सर्वांस्तथा भूतविशेष संघान् ब्रह्माणमीशं कमलासनस्थम् ऋषींश्च सर्वानुर्गांश्च दिव्यान् अनेकबाहूदर वक्त्रनेत्रम् पश्यामि त्वां सर्वतोऽनन्तरूपम् नान्तं न मध्यम् न पुनस्तवादिम् पश्यामि विश्वेश्वर विश्वरूप किरीटिनं गदिनं चक्रिणं च तेजाराशिं सर्वतो दी
पश्यामि त्वां दुर्निरीक्षं समन्तार दीप्तानलार्क द्युतिं अप्रमेयम् त्वमक्षरं परमं वेदितव्यम् त्वमस्य विश्वस्य परम् निधानम् त्वम् अव्ययः शाश्वत धर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे
त्वमादिदेव पुरुषः पुराणः त्वमस्य विश्वस्य परम् निधानम् त्वमादिदेव पुरुषः पुराणः त्वमस्य विश्वस्य परम् निधानम् वेत्तासि वेद्यं च परम् च धाम त्वया ततं विश्वमनन्तरूप त्वया ततं विश्वमनन्तरूप वायुर्यमोऽग्निः वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च वायुर्यमोऽग्निः वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च नमो नमस्तेऽस्तु सहस्रकृत्व पुनश्च भूयोऽपि नमो नमस्ते पुनश्च भूयोऽपि नमो नमस्ते
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः अत ऊर्ध्वं न संशयः
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय मामिच्छाप्तुं धनञ्जय
अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि
अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि कुर्वन् सिद्धिम् अवाप्स्यसि
अथैतदप्यशक्तोऽसि कर्तुम् मद्योगमाश्रितः सर्वकर्मफलत्यागम् ततः कुरु यतात्मवान्
अथैतदप्यशक्तोऽसि कर्तुम् मद्योगमाश्रितः
सर्वकर्म फलं त्यागं ततः कुरु यतात्मवान् ततः कुरु यतात्मवान्।
श्रेयो हि ज्ञानम् अभ्यासात् ज्ञानाध्यानं विशिष्यते ज्ञानात् कर्म फलत्यागः त्यागात् शान्तिः अनन्तरम्।
श्रेयो हि ज्ञानम् अभ्यासात् ज्ञानाध्यानं विशिष्यते ध्यानात् कर्म फलत्यागः त्यागात् शान्तिः अनन्तरम्। त्यागात् शान्तिः अनन्तरम्।
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च निर्ममो निरहङ्कारः समदुःख सुखः क्षमी।
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च निर्ममो निरहङ्कारः समदुःख सुखः क्षमी। समदुःख सुखः क्षमी।
सन्तुष्टः सततं योगी यतात्मा दृढ निश्चयः मय्यर्पित मनो बुद्धिः यो मद्भक्तः स मे प्रियः।
सन्तुष्टः सततं योगी यतात्मा दृढ निश्चयः मय्यर्पित मनो बुद्धिः यो मद्भक्तः स मे प्रियः। यो मद्भक्तः स मे प्रियः।
यस्मान्नो द्विजते लोको लोकान्नो द्विजते च यः हर्षामर्षभयोद्वेगैः मुक्तो यः स च मे प्रियः।
यस्मान्नो द्विजते लोको लोकान्नो द्विजते च यः हर्षामर्षभयोद्वेगैः मुक्तो यः स च मे प्रियः। मुक्तो यः स च मे प्रियः।
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः सर्वारम्भ परित्यागी यो मद्भक्तः स मे प्रियः।
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः सर्वारम्भ परित्यागी यो मद्भक्तः स मे प्रियः। यो मद्भक्तः स मे प्रियः।
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभ परित्यागी भक्तिमान्यः स मे प्रियः।
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभ परित्यागी भक्तिमान्यः स मे प्रियः। भक्तिमान्यः स मे प्रियः।
समशत्रौ च मित्रे च तथा मानापमानयोः शीतोष्ण सुखदुःखेषु समः सङ्गविवर्जितः।
समशत्रौ च मित्रे च तथा मानापमानयोः शीतोष्ण सुखदुःखेषु समः सङ्गविवर्जितः। समः सङ्गविवर्जितः।
तुल्यनिन्दास्तुतिर्मौनी स संतुष्टो येन केनचित् अनिकेतः स्थिरमतिः भक्तिमान् मे प्रियो नरः।
तुल्यनिन्दा स्तुतिर्मौनी संतुष्टो येन केनचित् अनिकेतः स्थिरमतिः भक्तिमान् मे प्रियो नरः भक्तिमान् मे प्रियो नरः।
ये तु धर्म्यामृतम् इदम् यथोक्तम् पर्युपासते श्रद्धधानामत् परमा भक्तास्ते तीव मे प्रिया। ये तु धर्म्यामृतम् इदम् यथोक्तम् पर्युपासते श्रद्धधानामत् परमा भक्तास्ते तीव मे प्रियाः भक्तास्ते तीव मे प्रियाः।
Rajasastu phalam dukham
ఫలం రజసస్సు ఫలం దుఃఖం అజ్ఞానం తమస ఫలం సత్వాత్ సంజాయతే జ్ఞానం రజసో లోభ ఏవ చ ప్రమాద మోహ తమసో భవతో అజ్ఞానమేవ చ ప్రమాద మోహ తమసో భవతో అజ్ఞానమేవ చ
పూర్వం గచ్చంతి సత్వస్థాః మధ్యే తిష్ఠంతి రాజసాః జఘన్య గుణవృత్తిస్థాః అధో గచ్చంతి తామసాః జఘన్య గుణవృత్తిస్థాః అధో గచ్చంతి తామసాః నాన్యం గుణేభ్యః కర్తారం యదా ద్రష్టాను పశ్యతి గుణేభ్యశ్చ పరం వేత్తి మధుభావం సోధిగచ్చతి గుణేభ్యశ్చ పరం వేత్తి మధుభావం సోధిగచ్చతి గుణానేతానతి దేహీ దేహ సముద్భవా జన్మ మృత్యు జరా దుఃఖై విముక్తో మృతమశ్నుతే జన్మ మృత్యు జరా దుఃఖై విముక్తో మృతమశ్నుతే
మూలాన్యనుసంతతాన్
कर्मानुबंधी मनुष्य लोके न रूपमस्येह तथोपलभ्यते नान्तो न चादीर्न च संप्रतिष्ठा अश्वत्थमेनं सुविरूढमूलं असंगशस्त्रेण दृढेन चित्वा ततः पदं तत् परिमार्गितव्यं यस्मिन् गतान् निवर्तन्ति भूयः तमेव चात्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणि निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामा द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैः गच्छन्त्यमूढाः पदम् अव्ययम् तत् न तद्भासयते सूर्यो न शशांको न पावकः यद्गत्वा न निवर्तन्ते तद्धाम परमं मम तद्धाम परमं मम सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्मृतिर्ज्ञानम् अपोहनम् च वेदैश्च सर्वैः अहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् वेदैश्च सर्वैः अहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् वेदान्तकृद्वेदविदेव चाहम्
विमौ पुरुषौ लोके क्षरश्चाक्षर एव च क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदारुतः यो लोकत्रयमाविश्य विभर्ति अव्यय ईश्वरः यो लोकत्रयमाविश्य विभर्ति अव्यय ईश्वरः यस्माक्षरमतीतोऽहम्
अक्षरादपि चोत्तमः अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः यो मामेवमसं मूढो जानाति पुरुषोत्तमम् स सर्वविद् भजति माम् सर्वभावेन भारत स सर्वविद् भजति माम् सर्वभावेन भारत इति गुह्यतमम् शास्त्रम् इदमुक्तम् मया नघ एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत कृतकृत्यश्च भारत
अहं त्वा सर्वपापेभ्यो
संजय उवाच
राजन् संस्मृत्य संस्मृत्य संवादमिमम् अद्भुतम् केशवार्जुनयोः पुण्यम् हृष्यामि च मुहुर्मुहुः यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीविजयो भूतिः ध्रुवानीतिर्मतिर्मम यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीविजयो ध्रुवानीतिर्मतिर्मम ध्रुवानीतिर्मतिर्मम ध्रुवानीतिर्मतिर्मम
धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकम् व्यूढम् दुर्योधनस्तदा आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् पश्यैताम् पाण्डुपुत्राणाम् आचार्यमहतीम् च मो व्यूढाम् द्रुपदपुत्रेण तव शिष्येण धीमत अत्र शूरा महेश्वास भीमार्जुन समायुधि युयुधानो विराटश्च द्रुपदश्च महारथः दृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान् पुरुजिक्कुन्तिभोजश्च शैव्यश्च नरपुङ्गवः युधामन्युश्च विक्रान्तः उत्तमौजाश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः अस्माकम् तु विशिष्टाये तान्निबोधद्विजोत्तम नायका मम सैन्यस्य सञ्ज्ञार्थम् तान् ब्रवीमि ते भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः अश्वत्थामाविकर्णश्च सौमदत्तिस्तथैव च अन्ये च बहवः शूराः मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः अपर्याप्तम् तदस्माकम् बलम् भीष्माभिरक्षितम् भी